सर्वेभ्यो नमः। गतवर्गे वयं संख्यायाः किञ्चित् परिचयः अपि अभ्यासः तत् कृतवन्तः, अभ्यासं कृतवन्तः। अद्य अपि गृहपाठरूपेण किञ्चित् अभ्यासं कुर्मः, तदनन्तरम् अग्रे गच्छामः। अत्र अष्टादश अध्याय अस्ति, अभ्यासं करोतु इति। अस्तु, तत्र सङ्ख्याविषये प्रथमतया किञ्चित् पुनस्मरणं कुर्मः। तत्र कोष्टकं यदस्ति, कस्मिन् पुटे अस्ति एतत् सङ्ख्यायाः कोष्टकं? शोभा भगिनि,
अष्टपञ्चादशपुटे,
अष्ट
पञ्चादश,
पञ्चदश इत्युक्ते पञ्चाशत्, समीचीनं, अष्टपञ्चाशत् तमे पुटे एतद् अस्ति। अस्तु, अहम् आङ्ग्लभाषायां वदामि, अपि सर्वे उत्तरं संस्कृते ददातु। तत्र गीताञ्जलि भगिनी, 65 किम् अस्ति?
पञ्च
पुस्तकं दृष्ट्वा वदतु।
पञ्चषष्टिः,
अस्तु। उषा भगिनी, तत्र 58 किम् अस्ति?
अष्टपञ्चाशत्,
समीचीनं। मधुसूदन महोदय, तत्र 72 किम् अस्ति?
द्विसप्ततिः।
नरेश महोदय, तत्र 47 किम् अस्ति?
सप्तचत्वारिंशत्,
समीचीनम्। अपि रघुपति महोदय, 71,
एकसप्ततिः।
अस्तु, भानुचेतनी महोदय, तत्र 95,
पञ्चनवतिः।
अस्तु, इदानीं किञ्चित् अत्र गणितः अपि कुर्मः। तत्र आङ्ग्लभाषायां वदामि, तत्र संस्कृते तत् उक्त्वा तत्र योगः उत्तरं किम् इति अपि वदन्तु इदानीम्। अस्तु अस्तु, नरेश महोदय, 13+9 इति
त्रयोदश
योगः किमस्ति?
द्वाविंशतिः
अस्ति। अस्तु, नरेश महोदय, भवान् एव इदानीं मधुसनन्दन महोदयं पृच्छतु, एतादृशम् आङ्ग्लभाषायां पृच्छतु।
द्वादश,
न आङ्ग्लभाषायां पृच्छतु। अस्तु अस्तु, नरेश महोदय, आक्चुल् एतदेव समीचीनमस्ति। भवान् संस्कृतेन एव वदतु। एकसङ्ख्या योगः अन्या सङ्ख्या उत्तरं किम् इति, एतत् समीचीनमेव अस्ति। न श्रूयते महोदय,
द्वादश अष्ट,
द्वादश योगः
गुण
द्वादश
गुण अष्ट,
द्वादश गुण गुण इति जानाति वा मधुसूदन महोदय, इत्युक्ते किम् इति? सत्यं, द्वादश गुण अष्टः, अष्ट षण्णवतिः, समीचीनं महोदय, समीचीनं। इदानीं भवान् एव बालचैतन्य महोदयं पृच्छतु।
द्वादश योगः विंशतिः,
द्वादश योग विंशतिः, द्वात्रिंशत्।
अस्तु, समीचीनं। भानुचतुरी महोदय, इदानीं गीताञ्जलि भगिनीं पृच्छतु।
द्वात्रिंशत् योग पञ्चदश,
गीताञ्जलि भगिनी, द्वात्रिंशत् योगः
पञ्चदश,
पञ्चदश
सप्तचत्वारिंशत्,
हा सप्त चत्वारिंशत् समीचीनं भगिनि. इदानीं गीताञ्जलि भगिनी शोभा भगिनीं पृच्छतु.
चतुष्पञ्चाशत् योगः षट्त्रिंशत्
षट्त्रिंशत् चतुष्पञ्चाशत् वा
चतुष्पञ्चाशत् योगः षट् त्रिंशत्
चतुष्पञ्चाशत् योगः
षट् त्रिंशत्
षट् त्रिंशत् 36 षट् त्रिंशत् नवतिः.
समीचीनं समीचीनं. हा इदानीं शोभा भगिनी उषा भगिनी पृच्छतु.
सप्तसप्ततिः न्यूनं सप्त
सप्तसप्ततिः
न्यूनं सप्त
न्यूनम् इत्युक्ते किं महोदय?
न्यूनं अधिकं नास्ति न्यूनं मैनस् इति.
सप्ततिः.
हा समीचीनं. वंशीसुधा भगिनी नमस्कारः. अभ्यासं यत् अभ्यासं जानाति वा एतत्? अस्तु सः नास्ति इति मन्ये. अस्तु उषा भगिनी नरेश महोदयं पृच्छतु इदानीं.
त्रिनवतिः योगः पञ्च. त्रिनवतिः योगः पञ्च.
त्रिनवतिः योग पञ्च अष्टनवतिः.
अष्टनवतिः. हा समीचीनम्. अस्तु बहु समीचीनम् अस्ति. अस्तु धन्यवादः सर्वेभ्यो. हा समीचीन अभ्यासः आसीत्. रघुपतिमहोदय भवान् अपि कृतवान् खलु एतत्? न कृतवान् वा?
न महोदय.
ओ अस्तु 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 क्षम्यतां क्षम्यताम्. अस्तु वंशीसुधा भगिनी नमस्कारः.
नमस्ते महोदय.
श्रूयते वा इदानीं?
आम् महोदय श्रूयते. मम ध्वनि श्रूयते वा महोदय?
इदानीं श्रूयते. अत्र अभ्यासं कुर्वन् स्मः, श्रुतवती वा?
आम् महोदय.
अस्तु अस्तु अस्तु. इदानीं रघुपतिमहोदय भवतीं पृच्छति, एका संख्या योगः अपि किमपि अन्या संख्या तत्र उत्तरं ददातु, अपि भवती तं पृच्छतु तदनन्तरम्. अस्तु
द्वादशयोग द्वाविंशतिः. द्वादश योग द्वाविंशतिः.
द्वादश योगः
द्वाविंशतिः.
ओ एकचत्वारिंशत् द्वादश ओ क्षम्यतां द्वादशयोग द्वाविंशतिः इत्युक्ते त्रि किम् अभवत् त्रयस्त्रिंशत्.
न न द्वा रघुपतिमहोदय वदतु तत्र.
चतुस्त्रिंशत्.
समीचीनम्. इदानीं वंशीसुधा भगिनी भवती रघुपति आचार्यं पृच्छतु.
नवपञ्चाशत् योगः नवसप्ततिः.
नवपञ्चाशत् प्लस् नवसप्ततिः. वक्तुं शक्नुमः नवसप्ततिः नवसप्ततिः नवसप्त नवपञ्चाशत् अपि नवसप्ततिः.
आम् आं महोदय.
अष्टत्रिंशदधिक एक अष्टत्रिंशदधिकशतम्
एकशतं
शताधिक शताधिक अष्टात्रिंशत् अपि वक्तुं शक्नुमः. समीचीनम् अस्ति. अस्तु सर्वे सङ्ख्यायाः अभ्यासः अभ्यासं कृतवन्तः इदानीम्. अस्तु,
गृहकार्यम् अभवत् वा महोदय?
न न न, इदानीं गृहपाठः इदानीं भवति. अस्तु, भवती एव आरम्भं करोति वा सुमिश्रुत भगिनी, अथवा अन्य करोति अपि तदपि समीचीनमेव. अस्तु, नरेश महोदय, भवान् करोति वा गृहपाठ पञ्चवाक्यानि? पञ्चवाक्यानि वा, अथवा अहं न जानामि, अहं न स्मरामि, किन्तु सङ्ख्याम् उपयुज्य वाक्यानि.
भारतदेशे अष्टाविंशतिः राज्यानि सन्ति. एतत् मासे त्रिंशत् दिनानि सन्ति.
किं किं प्रथमभागम्
एतत् मासे त्रिंशत् दिनानि सन्ति.
तत्र एतस्मिन् मासे इति,
एतस्मिन् मासे
अथवा अस्मिन् अस्मिन् मासे, तदपि समीचीनम्.
लोकसभाचुनावः पञ्चवर्षेषु एकवारं भवति. क्रिकेट् टीम् मध्ये एकादश क्रीडकाः सन्ति. अत्रतः क्लीव्लैण्ड् गन्तुं 2 घण्टाः आवश्यकम् अस्ति.
तत्र द्वौ इति अस्ति चेत् तत्र घण्टौ प्रायशः भवति खलु?
आम् आम्, 2 घण्टौ.
किन्तु वाक्यं, पूर्णवाक्यं किम् अस्ति?
परन्तु घण्टा इति स्त्रीलिङ्गम् अस्ति न
महोदय? तदपि अस्ति. पुनरेकवारं महोदय.
अत्रतः क्लीव्लैण्ड् गन्तुं 2 घण्टे आवश्यकम् अस्ति.
अत्र
वदतु महोदय,
अत्रतः इति समीचीनं नास्ति अपि.
तदपि अहं तद् तस्य चिन्तनमेव, अतः इति अस्ति,
इतः
अपि अस्ति, इतः
ततः.
अत्र अन्यरीत्या अपि वक्तुं शक्नुमः महोदय, तत्र घण्टाद्वयम् आवश्यकम् इति.
घण्टाद्वयमपि अस्ति.
समीचीनम् अस्ति. अस्तु, अग्रे अन्यत् वाक्यम् अस्ति वा महोदय?
न,
अस्तु, धन्यवादः. अस्तु, उषा भगिनी वदति वा?
आम् महोदय. गायकः 10 गीतानि गायति.
गायकः 10 गीतानि. ओ, गीतम् इति, अस्तु, गीतं गीतानि, अस्तु,
गीतानि गायति. भारतदेशे 29 राज्याः सन्ति.
भारतदेशे 29, अत्र नरेश महोदय अन्यत् उक्तवान्. अपि राज्यः अथवा राज्यं, तत्र कोऽपि स्मरति वा? नपुंसकलिङ्गे अस्ति वा अथवा पुल्लिङ्गे अस्ति इति? राज्यः वा?
राज्यः
सन्ति, पुंलिङ्ग् अस्ति महोदय. तत् समीचीनं वा? अस्तु, अस्तु,
संस्कृत डिक्षनरि मध्ये अस्ति.
अस्तु अस्तु अस्तु, तदेव अहं न स्मरामि, अतः अहं पृष्टवान्. अस्तु
महोदय, स्पोकन् संस्कृत् मध्ये न पुस्तकलिङ्ग अस्ति, स्टेट्
राज्यं राजधानि
न जानामि.
राज्यं
राज्य स्टेट् अस्ति, न्यूट्रल् अस्ति.
अस्तु, किन्तु प्रायशः पुल्लिङ्गे अपि भवितुम् अर्हति इति वयं न जानीमः महोदय. अतः तत्र स्पोकन् संस्कृत् मध्ये यदस्ति तत् समीचीनम् अस्ति, किन्तु यद् अन्यत् रूपम् अस्ति न वा इति तत्र
भवितुम्
अर्हति, अतः अहं न जानामि. भगिनी उषा भगिनी, आप्ते शब्दकोशे दृष्टवती वा? अस्तु 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 समीचीनं, धन्यवादः भगिनि. अहं न ज्ञातवान् राज्यः इति पुल्लिङ्गे अपि भवितुम् अर्हति इति. धन्यवादः भगिनि. अस्तु अग्रे.
षोडशोपचार पूजायाः अङ्गानि अस्ति.
षोडशोपचार
पूजायाः अङ्गानि अस्ति.
अङ्गः इति पुल्लिङ्गे अस्ति भगिनि.
षोडश
षोडश उपचार
पूजायाः अङ्गानि अस्ति.
अङ्गः अङ्गः पुल्लिङ्गे अस्ति इति मन्ये भगिनि.
अङ्गं महोदय, अङ्गम् अङ्गकार्यम् अङ्गकार्यम् अङ्गम् अङ्गम् अस्ति.
नपुंसकलिङ्गे अस्ति वा भगिनि तत्र अङ्गम् इति?
अहं चिन्तयामि नपुंसकलिङ्गम् अस्ति महोदय.
अस्तु तदहं न स्मरामि, कोऽपि दृष्ट्वा वदतु किम् अस्ति इति. अङ्गम् इति भवति. अस्तु भगिनि अग्रे.
फेब्रवरि मासे अष्टाविंशतिः दिनाः सन्ति.
अष्टाविंशतिदिनाः सन्ति. समीचीनं.
दिनाः
तत्र दिनं दिनं दिनं
दिनानि
दिनानि
दिनानि महोदय दिनं
दिनं दिनम् इति अहं चिन्तयामि नपुंसकलिङ्ग इति,
परन्तु अष्टाविंशतिदिनानि इति भवति.
अष्टविंशतिदिनानि तत्र किं कः प्रश्नः भगिनि? वंशीसुधा भगिनी कः प्रश्नः?
भवती उक्तवती अष्टविंशतिदिनम् अस्ति या दिनानि? सम्यक् महोदय,
दिनानि दिनानि एव उक्तवती, दिनाः इति उक्तवती, किन्तु दिनानि इति चिन्तयामः. नपुंसकलिङ्गे अस्ति इति मन्ये
नपुंसकलिङ्गे.
अङ्गमपि नपुंसकलिङ्गे. अस्तु समीचीनं, धन्यवादः. अग्रे भगिनि.
वयं गीतासोपानपुस्तके अष्टपञ्चाशत् पुटस्य अभ्यासं कुर्मः.
समीचीनं भगिनि. अस्तु
पृथिवी आपः तेजः वायुः आकाशः पञ्चभूतानि अस्ति.
अस्तु
ईशकेन कटप्रश्न मुण्डक माण्डुक्य तैत्तरीय बृहदारण्यक चान्दोग्य ऐतर्य दशोपनिषदः अस्ति.
अस्तु
ग्रन्थोपनिषदाः दशोपनिषदाः अस्ति
सन्ति प्रायशः
सन्ति
सन्ति.
ग्रन्थालये पञ्चत्रिंशत् वातयानानि सन्ति. भगवद्गीतायां सप्तशतं समीचीनं वा महोदय?
सप्तशतं
श्लोकाः सन्ति. तावदेव महोदय.
समीचीनं भगिनि, समीचीनम्. अस्तु अग्रे शोभा भगिनी वदति वा?
आं महोदय. वृक्षे द्वौ पक्षिणौ दृश्यते. सः चतुरः शुनकानाम् आहारं दत्तवान्. अत्र चतुरः सः चतुरः द्वितीयविभक्ते विभक्त्या अस्ति महोदय.
विभक्तिरूपं अस्तु, किन्तु वाक्यं किम् आसीत् भगिनि तत्र?
सः चतुरः शुनकानां चतुरः अपि शुनकानाम् अद्वितीयविभक्ति. शुनकान् आहारं दत्तवान्.
आहारं दत्तवान् अस्तु, किन्तु तत्र तु आहारं ददाति चेत् तत्र चतुर्थी एव समीचीनमस्ति.
अस्तु महोदय.
अतः तत्र अत्र वयम् एतावत् वयं संख्यायाः विभक्तिरूपं न कृतवन्तः. अतः दृष्टवती कथायामासीत् सत्यं 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 तत्तु सत्यमेव.
आहारं ददाति
हा आहारं ददाति तत्तु समीचीनमेव तत्र हा
अहं तिस्रभिः
तत्र चतुर्भ्यः इति अस्ति भगिनि
अहं शब्दमञ्जरी दृष्टवती महोदय अत्र चत्वारः चतुरः इति दत्तमस्ति द्वितीया
अत्र चतुर्थी विभक्ति अपेक्षितम् अस्ति भगिनि शुनकः शुनकः इति वाक्यम् आसीत् खलु
अहं ददाति
सः
उपयोगं
सः
ददाति अपि चतुर्थी एव स्वीकरोति
तत्रापि ददाति अत्र किम् अस्ति शुनकः शुनकः इति रामशब्दवत् अस्ति तस्य चतुर्थी बहुवचनरूपं किम् अस्ति कोऽपि वदति वा न न शुनकानां षष्ठी अस्ति कः वदति
शुनकेभ्यः
रामेभ्यः इति रामेभ्यः तत्र चतुर्भ्यः इति रूपमस्ति
चतुर्भ्यः
चतुर्भ्यः शुनकेभ्यः
शुनकेभ्यः
आहारं ददाति
अधुना ददाति अथवा वा दत्तवान् सम्यक्
तदपि किमपि किमपि क्रियासूचकं
चतुर्भ्यः आं महोदय
किन्तु चतुर्भ्यः इति रूपम् अस्ति
प्रायः अग्रिमा अपि न सम्यक् अस्ति
किन्तु किन्तु वदतु
अहं तिस्रभिः रूप्यकैः एका स्थालिका क्रीणामि
तत्तु समीचीनमेव अस्ति
समीचीनमेव
तिस्रभिः
तृतीया
रूप्य
स्त्रीलिङ्गे
रूप्य तत्र एकवचने किम् अस्ति
रूप्यकैः
पुल्लिङ्गपत्व नपुंसकलिङ्गम् इति मन्ये रूप्यकानि इति दृष्टवन्तः खलु
रूप्यकानि नपुंसकलिङ्गम् अपि तृतीया विभक्ति पुल्लिङ्ग
त्रिभ्यः इति पुल्लिङ्गरूपमेव नपुंसकलिङ्गरूपमपि त्रिभ्यः
त्रिभ्यः अस्ति वा
किन्तु क्षम्यताम् अत्र तृतीया आवश्यकमस्ति त्रिभिः त्रिभिः
त्रिभिः
रूप्यकैः
रूप्यकैः एका स्थालिका क्रीणामि
एकां स्थालिकां क्रीणामि
अस्तु महोदय एकां स्थालिकां द्वयोः सेनयोः मध्ये अर्जुनः रथं स्थापितवान् पञ्चानां पाण्डवानाम् अर्जुनः प्रसिद्धः
तत्र पञ्चानां पाण्डवानां तत्र प्रायशः सप्तमी समीचीनं भवति वा
सप्तमी
पञ्चसु पाण्डवेषु
पञ्चसु पाण्डवे ओ पञ्चसु तदनन्तरं
सत्यं सत्यं पञ्चसु पञ्चसु
पञ्चसु
पञ्चसु पाण्डवेषु
पाण्डवेषु अर्जुनः प्रसिद्धः
अर्जुनः प्रसिद्धः समीचीनम् अस्तु भगिनि भवती सङ्ख्यायाः तृतीया चतुर्थी अपि सप्तमी उपयोगं कृत्वा वाक्यं कृतवती समीचीनमस्ति धन्यवादः अस्तु अग्रे कः वदति बालचन्द्रन् महोदय वदति वा
आं महोदय साधनचतुष्टय अर्हाः एव श्रवणमननिधिध्यासनं कर्तुं सिद्ध्यन्ति
किं किं किं
साधनचतुष्टय
साधनचतुष्टयं साधनचतुष्टयम् अथवा चतुष्टय
चतुष्टय अर्हाः समस्तपदं महोदय
अस्तु चतुष्टयार्थाः अस्तु अस्तु अत्र अग्रे किं भवति
अर्हाः श्रवण मनन निदिध्यासनं
श्रवण मनन निदिध्यासनं
कर्तुं सिद्ध्यति
अन्तिमं किमस्ति
सिद्ध्यन्ति
न न श्रवणं मननं निदिध्यासनं तदनन्तरं किम् अस्ति
कर्तुं कृत्वा सिद्ध्यन्ति महोदय
किन्तु चतुष्टयम् इति उक्तवान् महोदय तत्र केवलं त्रयम् अस्ति श्रवणं मननं निदिध्यासनं
शासनचतुष्टयं तु गुणः महोदय
हा तत्र मम अवगमनं समीचीनं नास्ति महोदय अस्तु हा तत्र चतुष्टयम् अस्ति इति अस्तु हा एतत् न जानामि महोदय अस्तु अन्यत् वा किं वदतु
महोदय चत्वारिंशति तत्त्वाः साङ्ख्यदर्शने भवन्ति
चत्वारिंशत् तत्त्वाः
तत्त्वाः साङ्ख्यदर्शने भवन्ति
साङ्ख्यदर्शने भवन्ति अस्तु हा तत्र तत्त्वः अस्ति वा तत्त्वम् अस्ति वा
तत्त्वानि तत्त्वानि अस्ति तत्त्वं
तत्त्वं नपुंसकलिङ्गं
अतः चत्वारिंशत् तत्त्वाः इति भवान् उक्तवान् अतः अहं पृच्छामि
पुल्लिङ्गः इति अहं चिन्तयामि
अस्तु अस्तु अहं केवलं नपुंसकलिङ्गरूपं श्रुतवान् इति मन्ये अतः पृष्टवान् अस्तु हा अस्तु तद् लिङ्गस्य चिन्ता मास्तु इदानीं हा वाक्यं समीचीनमस्ति महोदय
मोक्षाय सप्तभूमिकाः भवन्ति
मोक्षायाः वा
मोक्षः इति पुल्लिङ्गशब्दः महोदय
अस्तु तत्र किं वाक्यं किम् सप्त
मोक्षाय
अस्तु अस्तु मोक्षाय
सप्तभूमिकाः भवन्ति
भवन्ति अस्तु महोदय
त्रयी इत्युक्ते पद्य गद्य गानविभागाः
त्रै इत्युक्ते
पद्य गद्य गानविभागाः
अस्तु महोदय हा समीचीनं हा
तावदेव
हा धन्यवादः महोदय हा बहु समीचीनम् अस्ति हा अस्तु अग्रे वंशीसुतभगिनी वदति वा
अस्तु महोदय भारतदेशः स्वतन्त्रं प्राप्य त्रिसप्ततिः वर्षाः अभवत् प्रतिदिने चतुर्विंशतिः घण्टाः सन्ति जगद्गुरु आदिशङ्कराचार्य द्वात्रिंशत् वयसि निर्वाणं प्राप्तवान् सर्वस्य ग्रहस्य अपेक्षया गुरुग्रहे अत्याधिकः चन्द्राः सन्ति त्रिषष्टिः चन्द्राः सन्ति
तत्र किं पुनः एकवारं भगिनि
सर्वस्य ग्रहस्य अपेक्षया गुरुग्रहे अत्याधिकः चन्द्राः सन्ति त्रिषष्टिः चन्द्राः सन्ति
त्रिषष्टिः चन्द्राः सन्ति अस्तु
महोदय अष्टाशीतिः एकः अनुलोमप्रतिलोमसङ्ख्या अस्ति पालिन्ड्रोम् महोदय अनुलोम
अष्टाशीतिः
एकः अनुलोमप्रतिलोमसङ्ख्या अस्ति
ओ अष्टाशीतिः अस्तु 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 समीचीनं भगिनि
धन्यवादः
धन्यवादः भगिनि हा बहु समीचीनमस्ति हा नरेश महोदय उक्तवान् खलु मधुसूदन महोदयेन उक्तवान् अपि
अहमपि न
रघुपति महोदयेन अपि न उक्तवान् अस्तु मधुसूदन महोदय वदति वा तदनन्तरं रघुपति महोदय वदति
महाभारतयुद्धम् अष्टादशदिनानि अभवत् अभवत् चिन्तयामि अष्टादशदिनानि अभवत् किल
न दिनानि अभवत् तत्र यावत् इति आवश्यकमस्ति महोदय तत्र यावत् अभवत् तत्र यावत् इति कालसूचकः अस्ति तादृश मेजर् इति यावत् अष्टादशदिनपर्यन्तम् इति प्रायः अस्ति इति मन्ये
अष्टादशदिनपर्यन्तं
तादृशरूपमस्ति किन्तु यावत् इति तत्र दिनानि इति तत्र बहुवचने भवति इति मन्ये
अष्टादशदिनानि पर्यन्तं युद्धम् अभवत् इति
तद् सम्यक् न जानामि महोदय अष्टादशदिनपर्यन्तम् इति अहं चिन्तयामि
दिनपर्यन्तम् एव समीचीनं
तत्र यावत् इति अस्ति चेत् दिनानि पर्यन्तम् इति अस्ति चेत् प्रायशः केवल दिन इति मन्ये मधुसूदन
यावत् इति एकपदप्रयोगं विना तावत् अपि प्रयोगं कर्तुं
समीचीनं सः एकघण्टा यावत् प्रतिदिनं भगवद्गीतां पठति इति पूर्वं गीताञ्जलि भगिनी एकवारम् एतद् पृष्टवती तत्र अट्लीस्ट् भगवद्गीता रीड्स् भगवद्गीता अट्लीस्ट् वन् अवर् अ डे इति किमपि खलु भगिनि तत्र तत्र रूपम् आसीत् तत्र सः प्रतिदिनं एकघण्टा यावत् न्यूनातिन्यूनम् एकघण्टा यावत् भगवद्गीतां पठति इति तादृशरूपं किमपि अस्ति महोदय मधुसूदन महोदय अग्रे
प्रपञ्चे सप्तमहाद्वीपाः सन्ति पञ्चमहासरोवराः सन्ति विष्णुसहस्रनामस्तोत्रे सहस्राणि श्लोकाः सन्ति
सहस्राणि अस्तु श्लोकाः अस्ति चेत् सहस्राः श्लोकाः अथवा किन्तु सहस्रनामानि सन्ति खलु तत्
सहस्रनामानि सन्ति
श्लोकः तु प्रायशः शताधिक अथवा शत अपि शतद्वयमध्ये किमपि भवति इति मन्ये
सहस्रनामस्तोत्रे सहस्राः नामाः
सहस्रनामानि सन्ति नाम इति एकवचने अस्ति किन्तु तद् नपुंसकलिङ्गशब्दः अस्ति
महोदय अत्र सहस्र इति बहुवचनं नास्ति तत्र नास्ति सहस्रं
सहस्रं सहस्रनामानि हा तत्र सङ्ख्याविषये बहु किं वक्तव्यमस्ति महोदय, एतत् केवलं सङ्ख्या अस्ति, तत्र विभक्ति कथं करणीयम् अपि रूपं सर्वदा हा तत्र वचनं कीदृशं भवति, बहुवचनरूपमेव भवति वा इति बहु किमपि अस्ति तत्र, किन्तु तत् अग्रिमभागे द्वितीयभागे अपि सङ्ख्या इति विषयः आयाति, तस्मिन् सन्दर्भे कुर्मः इति इदानीम् अत्र पुटद्वयमेव अस्ति इति कृत्वा लघु परिचयः अस्ति एतत्, किन्तु सर्वे बहु किमपि कृतवन्तः, समीचीनमेव अस्ति। हा मधुसूदन महोदय
गीतासोपानं प्रथमभागपुस्तकमूल्यं चत्वारिंशत् अधिक शतं रूप्यकाणि इति चिन्तयामि।
हा अस्तु, हा समीचीनं महोदय, हा समीचीनं, तस्य मूल्यं हा एतत् अस्ति, अस्तु समीचीनं महोदय। हा अन्यत् वा किमस्ति वा? हा धन्यवादः महोदय, बहु समीचीनमस्ति। हा रघुपति महोदय इदानीं वदति वा?
हा महोदय, क्रिकेट् क्रीडायां द्वाविंशतिः क्रीडालवः सन्ति, यजुर्वेदः त्रिषु वेदेषु अन्यतमः अस्ति, पञ्चसु पाण्डवेषु युधिष्ठिरः अग्रजः अस्ति, आरक्षकः चतुरान् चोरान् गृहीतवन्तः,
तत्र चतुरः इति एव भवति महोदय, तत्र
न न चतुरः इति
चत्वारः
न महोदय, क्वालिटि अस्ति, गुणः अस्ति, चतुरः चोरः अस्ति, अतः
अस्तु अस्तु अस्तु, किन्तु सङ्ख्या इति विषयम् अहं चिन्तितवान्,
चतुरः अस्ति, चतुरः अस्ति, चतुरः चतुरान् चोरान् गृहीतवन्तः।
अस्तु तत्र सङ्ख्या किम् अस्ति, सङ्ख्या सूचक
चतुरः चतुरः चतुरः
चतुरः
चोरः
चतुरः
चतुरः चोरान्
कर्मपदं पुनरेकवारं वदतु महोदय।
आरक्षकाः गृहीतवन्तः,
अस्तु इदानीं कर्मपदं
चोरान् गृहीतवन्तः,
चोरान् गृहीतवन्तः, कति चोरान्?
चतुरः चोरान्,
हा चतुरः चतुरः चोरान् चतुरः चोरान् इदानीं चतुरान्
चोरान् कीदृश कीदृशि चोरान् चतुरान् चोरान्,
अस्तु 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 समीचीनं, हा चतुरान् इति नास्ति इति अहं श्रुतवान् इति मन्ये, केवलं चतुरः चोरान्, अस्तु समीचीनं महोदय। हा
अमेरिकादेशस्य डालर् मुद्रायाः इदानीं मूल्यम् इदानीं 270 रूप्यकाणि सन्ति वा अस्ति वा, किञ्चित् भ्रमः अस्ति,
रूप्यकाणि सन्ति इति प्रायश
कथं भवति, मूल्यं मूल्यम् अस्ति,
मूल्यम् अस्ति इति एव अस्ति,
मूल्यम् अस्ति अतः अस्ति
रूप्यकाणि,
भारतीयानां सामान्यः जीवितावधिः 69 वर्षाणि अस्ति, भारतीयानां सामान्यः जीवितावधिः 69 वर्षाणि,
केवलं 69, अस्तु
नवषष्टि गूगल् मध्ये दृष्टवान् न
जाने,
रिपोर्ट् अस्ति,
अस्तु महोदय 69 न्यूनम् अस्ति।
द्रौपद्याः विवाहः 5 पाण्डवैः सह जातः, तदेव महोदय,
समीचीनमस्ति महोदय, धन्यवादः। अस्तु
महोदय, एकः प्रश्नः, क्षम्यतां महोदय, एकः प्रश्नः, चतुरः किं रूपं महोदय?
चतुरः चत्वारः इति तत्र चतुरः, तत्तु चत्वारः चतस्रः अपि
चतुरः
चत्वारि एतत्तु प्रथमविभक्तिः
पदस्य द्वितीय विभक्ति
चतुरः तत्र
पुंलिङ्गे
पुल्लिङ्गे हा एतत् कथायाम् आगतम् आसीत् एतत् पदं हा तदेव अस्ति तत्र इदानीं तत्र अन्य विभक्ति अपि उपयोज्य बहु किमपि सर्वे कृतवन्तः
महोदय अहं
क्षम्यतां भगिनी हा गीताञ्जलि भगिनी वदतु वदतु हा
अद्य त्रयोविंशतिः तिथिं नास्ति
अद्य
त्रयोविंशतिः तिथिं नास्ति
अद्य त्रयोदश तिथि
त्रयोविंशतिः
तिथिः नास्ति अस्तु अस्तु
त्रयोविंशतिः अस्ति वा
तिथिः प्रायशः नास्ति तत्र
अद्य नास्ति किन्तु अद्य नास्ति
कदापि न भवितुम् अर्हति
अस्तु अस्तु हा किन्तु वाक्यं व्याकरणरूप्या पश्यामः समीचीनमस्ति अस्तु भगिनि
त्रयाणां पुस्तकानाम् अष्टाधिकं शतं पत्राणि सन्ति सम्यक् वा महोदय
किं 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 पुनरेकवारं त्रयाणां
पुस्तकानाम् अष्टाधिकं शतं पत्राणि सन्ति
पुस्तकेषु
पुस्तकानि
त्रिषु
पत्रं पुस्तका पुस्तकस्य पुस्तके कति पत्राणि सन्ति इति प्रायशः भवति
आं महोदय पुस्तके अष्टाधिकं शतं पत्राणि सन्ति किन्तु त्रयाणां पुस्तकानां
न किन्तु इदानीं सप्तमी अस्ति तत्र तत्र हा तत्र पुस्तकेषु इति भवति
त्रिषु पुस्तकेषु त्रिषु पुस्तके
तत्र तत्र यथा रघुपतिमहोदय वदति पूर्वम् आहत्य इन् टोटल् इति आहत्य त्रिषु पुस्तकेषु
त्रिषु पुस्तकेषु अष्टाधिकं शतं पत्राणि सन्ति बालकौह्यस्तन सप्ताह घण्टाः गृहे बहिः
यावत्
बालकौह्यस्तन यावत् सप्ताह घण्टाः
सप्तघण्टाः यावत्
सप्तघण्टाः यावत्
बहिः
आम् महोदय यावत् गृहे बहिः आस्ताम् एकायाः बालिकायाः स्यूते षोडश लेखन्याः आसन्
लेखन्यः इति लेखनी नदी नद्यौ
नद्यः लेखन्यः लेखन्यः क्षम्यतां लेखन्यः आसन् वानराः समूहे
वानराः
वानराः समूहे पञ्चचत्वारिंशत् सदस्याः सन्ति
वानराणां समूहे प्रायशः अथवा वानरसमूहे संयुक्तपदं कृत्वा वानरसमूहे
वानरसमूहे आं महोदय संयुक्तसमासः वानरसमूहे पञ्चचत्वारिंशत् सदस्याः सन्ति.
समीचीनं भगिनि,
तावत् तावदेव.
अस्तु, सर्वं समीचीनम् अस्ति, धन्यवादाः. अस्तु, इदानीम् अग्रे गच्छामः. तत्र नूतनविषयः अस्ति, तत्र अग्रिम अष्टाध्याय अध्याये तत्र कुत्र स्मः वयं, अहं बहु अग्रे गतवान्. अस्तु अस्तु, अत्र एव अस्ति. षष्टितमे पुटे अभ्यासं करोतु इति यदस्ति, तत्र मधुसूदन महोदय किञ्चित् पठति वा तत्र? षष्टितमपुटे अष्टादश अध्यायः.
एतानि वाक्यानि सावधानतया पठत अवगच्छत च. क्रियापदस्य विभज्यया प्रयोगः. कृष्णः अर्जुनम् उपदिशति. कृष्णः अर्जुनस्य उपदेशं करोति. प्रबन्धकज्ञाः गीताव्याख्यानं शृण्वन्ति. प्रबन्धकज्ञाः व्याख्यानस्य
श्रवणं कुर्वन्ति. समीचीनं महोदय. अस्तु, तत्र समीचीनं महोदय, तावदेव. अस्तु अस्तु, इदानीं तत्र किम् अभवत् इति
महोदय. षष्टि अर्जुनस्य षष्टि
सत्यम्.
द्वितीयविभक्ति समानार्थक.
सत्यं, अत्र अत्र पश्यामः पश्यामः. पश्यामः किं भवति इति. अस्तु, एकनिमिषः. सत्यं सत्यं, तत्र विभक्तिरूपं तत्र कृष्णः अर्जुनम् उपदिशति. कृष्णः अर्जुनस्य उपदेशं करोति. अपि प्रबन्धतज्ञाः गीताव्याख्यानं शृण्वन्ति. प्रबन्धतज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति इति अस्ति. तत्र वाक्यद्वयं, प्रथमवाक्यद्वयमस्ति, अपि द्वितीयवाक्यद्वयमस्ति. कृष्णः इति तत्र वाक्यद्वयमस्ति, प्रबन्धतज्ञाः इति वाक्यद्वयमस्ति. तत्र वाक्यद्वये किं किम् अस्ति इति, क्रियापदं किम् अस्ति इति वदत् तत्र प्रथमवाक्यद्वये कृष्णः इति आरभ्य तत्र वाक्यमस्ति. तत्र उषा भगिनी, तत्र क्रियापदं किम् अस्ति कृष्णः इति?
कृष्णः अर्जुनम् उपदिशति. उपदिशति क्रियापदम् अस्ति. अर्जुनं द्वितीयविभक्ति कर्मपदम् अस्ति महोदय.
द्वितीयवाक्ये
कृष्णः अर्जुनस्य उपदेशं करोति. अर्जुनस्य षष्टिविभक्ति अस्ति एकवचने. उपदेशं कर्मपदम् अस्ति द्वितीयविभक्ति. करोति क्रियापदम् अस्ति महोदय.
तत्र करोति इति क्रियापदम् अस्ति, किन्तु प्रथमवाक्ये उपदिशति इति क्रियापदम् अस्ति. तत्र कर्मपदम् अर्जुनम् अस्ति, द्वितीयवाक्ये उपदेशम् इति कर्मपदं भवति. अस्तु, अग्रिमवाक्ये तत्र किं भवति गीताञ्जलि भगिनी? प्रबन्धतज्ञाः इति वाक्ये क्रियापदं किं?
प्रबन्धतज्ञाः गीताव्याख्यान व्याख्यानं शृण्वन्ति इति क्रियापदम् अस्ति. गीताव्याख्यानम् इति कर्मपदम् अस्ति.
अस्तु, द्वितीयवाक्ये
प्रबन्धतज्ञाः गीताव्याख्यानस्य श्रवणं कुर्वन्ति. कुर्वन्ति इति क्रियापदम् अस्ति, श्रवणं कर्मपदम् अस्ति. गीताव्याख्यानस्य इति षष्टिरूपम्
अस्ति. तत् कर्मपदम् अस्ति वा तत्र?
नो न महोदय किन्तु
कर्मपदं तु सर्वदा द्वितीयविभक्ति रूपमेव अस्ति
आम् महोदय किन्तु अर्जुनस्य अहं न अवगच्छामि
तदेव 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 अस्माकं कार्यः किम् अत्र भवति इति तत्र किं लिखितमस्ति तत्र कृष्णः अर्जुनम् उपदिशति तद् अपि कृष्णः अर्जुनस्य उपदेशं करोति तत्र वाक्यद्वयमस्ति किन्तु समानार्थकवाक्यद्वयमस्ति कृष्णः अर्जुनम् उपदिशति इति वाक्यस्य यः अर्थः अस्ति सः एव अर्थः कृष्णः अर्जुनस्य उपदेशं करोति इति वाक्यस्य अपि
कृष्णः अर्जुनम् उपदेशं करोति इति न सम्यक्
नास्ति न सम्यक् नास्ति तत्र अर्जुनम् इति अपि कर्मपदं भवति खलु सः किं करोति सः अर्जुनं करोति सः उपदेशं करोति इति भवति खलु तत्र
आम् महोदय
किन्तु
अर्जुनार्थाय उपदेशं करोति किमर्थम्
अर्जुनाय इति वा
अर्जुनाय किमर्थम् अर्जुनस्य
अर्जुनाय इति न तत्र अर्जुनस्य कस्य उपदेशम् भवती अर्जुनस्य उपदेशम् इति
कस्य उपदेशम्
अर्जुनस्य उपदेशम् तत्र उपदिशति इति तस्य कर्मपदमस्ति अर्जुनं तस्य षष्टिविभक्तिरूपम् अत्र भवति तत्र कार्यः कः इति तत्र तत्र एकवारम् उदाहरणं पश्यामः तदनन्तरं कार्यः कः इति अधोभागे लिखितमस्ति तद् पश्यामः तत्र
तत्र मम अवगमनम् इत्युक्ते क्रियापदस्य विभजनं महोदय उपदिशति उपदेशं करोति
तत्र
सत्यं महोदय तत्रैव मम कार्यं भवति
सत्यं भगिनि सत्यं भगिनि तदेव अस्माकं कार्यः तत्र उपदिशति इति स्थाने उपदेशं करोति अपि शृण्वन्ति इति स्थाने श्रवणं कुर्वन्ति समीचीनं भगिनि तत्र
पाठस्य नाम क्रियापदस्य विभज्य प्रयोगः इति अस्ति
तदेव तदेव अस्ति तत्र क्रियापदं यद् अस्ति तस् क्रियापदस्य स्थाने नूतनक्रियापदम् इत्युक्ते करोति इति क्रियापदं स्थापयामः सर्वदा तावदेव अस्ति करोति अथवा कुर्वन्ति इति तद् स्थापयामः तदेव तत् कथं करणीयं समानार्थकवाक्यं वाक्यद्वयं भवति अस्तु तत्र भानुचतनी महोदय तत्र एवमेव इति तद् एकवारं पठति वा तत्र स्थापयति इति ततः आरभ्य
एवमेव
तत्र
अवधेयं
न मधुसूदन महोदय
एवमेव रथं स्थापयति तत्
तत्र
एवमेव रथं स्थापयति रथस्य स्थापनं करोति
अग्रे
भेरीं वादयति भेर्याः वादनं करोति हृदयं विदारयति हृदयस्य विदारणं करोति इन्द्रियाणि प्रेरयन्ति इन्द्रियाणां प्रेरणं कुर्वन्ति कुरुक्षेत्रं प्रविशति कुरुक्षेत्रस्य प्रवेशं करोति जयम् उद्घोषयति जयस्य उद्घोषणं करोति
इति तत्र प्रथमभागे अनेकानि क्रियापदानि सन्ति किन्तु द्वितीयभागे किम् अस्ति सर्वदा करोति करोति इति तस्य द्विवचनरूपं वा बहुवचनरूपं वा अस्ति तावदेव अत्र वयं किं कुर्मः, क्रिया यत् अस्ति, या क्रिया अस्ति अथवा या क्रियापदं यत् अस्ति तस्य विभजनं कुर्मः. विभजनं इत्युक्ते अन्यरीत्या वदनीयं तावदेव. केवलम् एका रीत्या वदनीयम् इति नास्ति खलु. एतत् अस्ति अन्या रीत्या वक्तुम् इच्छामः चेत् एतत् कर्तुं शक्नुमः.
आम् महोदय, प्रबन्धज्ञाः इत्युक्ते किं
महोदय?
मेनेजर्स्
अथवा
प्रबन्ध व्यवस्थापकः, व्यवस्थापकाः.
अस्तु महोदय,
अस्तु
अस्तु. अत्र तत्र अर्थस्य परिवर्तनं न भवति, किन्तु केवलम् अन्या रीत्या वक्तुम् इच्छामः चेत् एतत् एषः प्रयोगः अस्ति. तत्र कार्यः यत् अस्ति तत्र अधोभागे पश्यामः. इदानीं वंशीसुधा भगिनी पठति वा तत्र अवधेयम् इति यत् अस्ति तद्भागम्?
आम् महोदय, अवधेयं सञ्जयः कर्तुप्रथम प्रथमाविभक्तिः, धृतराष्ट्रं कर्मपदं द्वितीया विभक्तिः, बोधयति क्रियापदम्. सञ्जयः तदेव अस्ति, सञ्जयः कर्तुप्रथम प्रथमाविभक्तिः अस्ति. धृतराष्ट्रं परिवर्तनम् अभवत्, धृतराष्ट्रस्य कर्मपदं षष्ठी विभक्तिः. बोधयति विभजनं कृत्वा बोधनं करोति, क्रियापदं विभज्य लिखितम्. विभज्य इत्युक्ते क्रियापदस्य विभागं कृत्वा, यथा आकर्षयति आकर्षणं करोति, निवेदयति निवेदनं करोति.
तत्र एकम् एव क्रियापदमासीत्, इदानीं क्रियापदद्वयं. तत्र केवलं करोति इति किमपि, तत्तु क्रियां सूचयति, किन्तु सम्यक्तया वक्तव्यं चेत् निवेदनं करोति, आकर्षणं करोति. किमपि क्रिया भवतु, कापि क्रिया भवतु, तत् करोति इति वक्तुं शक्नुमः खलु?
महोदय, एकः प्रश्नः, धृतराष्ट्रस्य अत्र कर्मपदं लिखितं, धृतराष्ट्रस्य कर्मपदं षष्ठी विभक्ति.
तत्र किं भवति भगिनि, तत्र बोधयति इति प्रथमवाक्यं किम् अस्ति? सञ्जयः धृतराष्ट्रं बोधयति. बोधयति इति क्रियापदम् अस्ति,
तत्र धृतराष्ट्रम् इति कर्मपदमस्ति,
इति कर्मपदमस्ति. द्वितीयवाक्ये करोति इति क्रियापदम् अस्ति. सः किं करोति? सः बोधनं करोति.
बोधनम् एव कर्मपदम् अस्ति.
इदानीं नूतनवाक्ये बोधनमेव कर्मपदं भवति.
लिखितमस्ति
न न महोदय, अहं चिन्तयामि कर्मणि प्रयोगे कर्म प्रथमविभक्ति भवति, तथैव अत्रापि भवति अर्हति वा महोदय? अहं चिन्तयामि, अहं न बोधनम् अथवा प्रेरणं प्रवेशम् इत्यादि नपुंसकलिङ्गे अस्ति अस्ति
तत्र बहु
कर्मपद धृतराष्ट्र एव भवति, भवितुमर्हति. किमर्थम् इति चेत् दृढन्तरूपं षष्ठीविभक्तियां प्रायशः भवति इति अहं
किन्तु महोदय एकं चिन्तयामः. तत्र सः पठति, सः पठनं करोति, तत्र किमस्ति? पठनमेव कार्यम् अस्ति, कर्मपदम् अस्ति,
पठनमेव. अस्तु, पठनं किं द्वितीयविभक्ति भवति अत्र?
पठनं,
पठनं गमनम्.
तत्र मम चिन्तनम् अत्र अस्ति, तदेव कर्मपदम् इति स्वीकरोतु. कोऽपि दोषः नास्ति इति मन्ये अत्र
दोषः नास्ति तत्र
अग्रे गत्वा प्रायशः धृतराष्ट्रस्यापि किमर्थं तदपि कर्मपदम् इति चिन्तयितुं शक्नुमः इति तदपि किन्तु अत्र किमस्ति तत्र यत् क्रियापदमस्ति तस्य नामपदरूपं कृत्वा तदेव कर्मपदं भवति अत्र खलु स्थापयति इति किं भवति स्थापनम् पठति इति पठनं गच्छति इति गमनं वादयति इति वादनं विधारयति इति विधारणम् इति किं करोति विधारणं करोति कस्य विधारणं करोति
तत्र किमपि
अत्र
हृदयस्य
इदानीं सरलरीत्या चिन्तनीयमस्ति प्रथमतया अग्रे गत्वा समीचीनं वा अत्र प्रथमस्तरः अस्ति तत्र एतदेव अस्ति क्रियापदमस्ति वयम् एतावत् किं जानीमः वाक्ये क्रियापदमस्ति कर्तृपदमस्ति कर्मपदमस्ति इदानीं नूतनरूपमस्ति तदपि तत्रापि क्रियापदमस्ति कर्तृपदमस्ति कर्मपदम् आवश्यकमस्ति अपि नूतनपदमस्ति तत् षष्टिविभक्तिरूपमस्ति तदपि
महोदय किञ्चित् भ्रमः अस्ति मम यथा रामः रावणं हतवान् इति अस्ति रामेण रावणः हतः इति अस्ति तत्र रावणम् इति कर्मपदम् अस्ति प्रथमवाक्ये कर्मणि प्रयोगे कर्मपद एव प्रथमविभक्ति भवति तथैव अत्र भवितुम् अर्हति वा इति मम प्रश्नः अस्ति अहं न जानामि धृतराष्ट्र यथा धृतराष्ट्रम् इति अत्र यथा कर्मणि प्रयोगे प्रथमविभक्तौ भवति कर्मपद
तादृशचिन्तनमपि सम्यक् एव अस्ति महोदय इति मन्ये
अस्तु महोदय
तदपि सम्यक् एव अस्ति इति मन्ये किन्तु अत्र एतत् चिन्तनमपि तत्र दोषः नास्ति बोधनम् इति अथवा पठनम् इति तदेव कर्मपदम् इति इदानीं चिन्तयति
नपुंसकलिङ्गे अस्ति अतः भवितुम् अर्हति समानमेव
केवलं तद् न किन्तु तदपि सत्यं 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 महोदय अस्तु अस्तु इदानीं किं कुर्मः तत्र वाक्यं दत्तं तत्र प्रथम अभ्यासः अस्ति तद् एकवारं कुर्मः सर्वे अवगच्छन्ति वा किं कार्यं कार्यः कः इति अथवा कार्यं किम् इति तत्र एकं वाक्यम् अस्ति तत्र करोति इति नास्ति क्रियापदम् अन्यत् किमपि क्रियापदम् अस्ति तस्मिन् स्थाने करोति इति क्रियापदं भवति तस्य पूर्वं यत् क्रिया अस्ति तस्य अन्यत् रूपं नूतनरूपम् उपदिशति इति उपदेशम् इति करोति इति तादृश स्थापयति इति स्थाने स्थापनं करोति इति भवति अत्र पश्यामः तत्र उद्घाटयति किं भवति तत्र
उद्घाटनं करोति
उद्घाटनं करोति इति अस्ति अस्तु सत्करोति सत्कारं करोति अस्तु निबध्नाति निबन्धनं करोति अस्तु अग्रिमं प्रतिष्ठापयति प्रतिष्ठापनं करोति इति अर्जयामि इति अपि आह्वयसि करोषि इति भवति तत्र सर्वत्र क्रियापदं किं भवति एतद् विभज् यदि क्रियापदस्य विभजनं कुर्मः तत्र किं भवति करोति इति एव क्रियापदं तत्र भवति अस्तु तत्र यथा रघुपतिमहोदयेन उक्तं तत्र वयं बोधनम् अथवा यत् क्रियापदेन आगतं पदं तदपि कर्मपदम् इति चिन्तयितुं शक्नुमः अथवा एतदपि कर्तुं शक्नुमः यत्र धृतराष्ट्रम् इति स्थाने धृतराष्ट्रस्य इति इदानीं कर्मपदस्य षष्टिविभक्तिरूपम् अस्ति इति
न महोदय अहम् इदानीम् अहम् अवगतम् एतत् कर्तरि अस्ति न तथा
कर्तरि कर्तरि एव अस्ति
कर्तरि तदा द्वितीयविभक्ते भवतीमर्हति न कर्मपदं कर्तरि मे कर्तर्यां
किन्तु महोदय किमपि भवतु तत्र किमस्ति कर्मपदं पूर्वम् अस्ति तस्य इदानीं षष्टिविभक्तिरूपम् अस्ति इति तादृशचिन्तनं कर्तुं शक्नुमः नो चेत् यदि करोति इति तत् सकर्मकक्रियापदम् इति चिन्तयामश्चेत् तत्र बोधनं पाठनं पठनं किमपि तत् कर्मपदम् इति चिन्तयितुं शक्नुमः किमपि यत् सौकर्यमस्ति मनसि एतत् कार्यं कर्तुं तद् तदेव तदेव आवश्यकमस्ति अस्तु इदानीं द्वितीय अभ्यासः तत्र कुर्मः हा शोभा भगिनी अग्रे पठति वा द्वितीय अभ्यासः
अधः लिखितानि वाक्यानि यथोदाहरणं परिवर्त्य लिखत यथा एषः आवरणे घटः घटस्य पूरणं करोति घोषः हृदयं घोषः हृदयस्य विदारणं करोति
हा समीचीनं भगिनि हा तत्र किम् आवश्यकम् इदानीं तत्र यत् पदं दत्तमस्ति तस्य
तस्य
किं रूपम् आवश्यकम्
षष्टिविभक्तिरूपम्
आवश्यकं तावदेव अस्तु हा अग्रे नरेश महोदय अग्रिमं
कृष्णः रथ रथस्य स्थापनं करोति
हा अस्तु हा अग्रे भानुचेतनी महोदय
वयं इन्द्रियाणि इन्द्रियाण्यः प्रेरणं कुर्मः
इन्द्रियाणि इति वचनं किं किम् अस्ति महोदय
इन्द्रियाणां
समीचीनं बहुवचनं षष्टि बहुवचनं वाक्यं महोदय
इन्द्रियाणां प्रेरणं कुर्मः
हा समीचीनं हा अस्तु वंशीसुधा भगिनी अग्रे
अर्जुनः गीता गीतामृतस्य पानं करोति
हा समीचीनं हा मधुसूदन महोदय
भीमः दुःशासनस्य मरणं करोति
हा समीचीनं हा उषा भगिनी
सहदेवः शकुनिः हननं करोति सहदेवः शकुनेः हननं करोति
हा समीचीनं गीतञ्जलि भगिनी
एषः इन्द्रियाणां संयमनं करोति
हा रघुपति महोदय अग्रे
कृष्णः गोपिकानां वस्त्राणि अपहरणं करोति गोपिकानां वस्त्राणाम् अपहरणं करोति
हा समीचीनं हा अस्तु अग्रे हा अग्रे वंशीसुधा भगिनी
आं महोदय योगी सर्वत्र ईश्वरस्य ईक्षणं करोति
हा समीचीनं हा अस्तु नरेश महोदय
पुण्यकृत् पापस्य तरणं करोति
हा मधुसूदन महोदय
अहं श्लोकस्य अनुवादं करोमि
हा समीचीनम् अस्तु हा इदानीं किं कुर्मः तत्र तत्र किमपि कार्यं नासीत् केवलं षष्टिविभक्ति एव कार्यम् आसीत् तत्र तत्र इदानीं चिन्तयामः तत्र प्रथमवाक्यम् एषः घटस्य पूरणं करोति तत्र अन्यत् रूपं किम् अस्ति तस्य वाक्यस्य शोभा भगिनी चिन्तयति वदति वा
आं महोदय एषः घटस्य
पूर्णं करोति इति अस्ति किन्तु
षष्टिविभक्तिपदं कर्मपदं भवितव्यं
कृत्वा
घटं
एषः घटं
पूर्णं करोति
अथवा पूरयति इति पूर्णं करोति इति तत्र नूतनक्रियापदम् अपेक्ष
एषः घटं पूरयति
हा एषः घटं पूरयति इति वाक्यस्य समानार्थकवाक्यम् अस्ति एषः घटस्य पूरणं करोति इति समीचीनं भगिनि हा तादृश अत्रापि कर्तुं शक्नुमः इति चिन्त्य प्रयत्नं कुर्मः अत्र हा उषा भगिनी अग्रिमवाक्ये घोषः
हृदयस्य विदारणं करोति घोषः
हृदयम् एव अस्ति किन्तु तत्र अस्माकं कार्यं किम् अत्र विधारणं करोति इति तस्मिन् स्थाने क्रियापदं विधारयति प्रायशः अस्ति ऊहम् ऊहं करोमि इदानीं
प्रेरयन्ति
हा विधारयति इति चिन्तयामि विदारयति अस्ति वा क्रियापदम् अस्तु विदारयति विदारणं
स्थापनं करोति
अग्रिमं किमस्ति विदारयति इति प्रथमवाक्यम् अस्ति अस्तु अग्रे गीताञ्जलि भगिनी द्वितीयवाक्यं कृष्णः
कृष्णः रथं स्थापयति
हा कृष्णः रथं स्थापयति समीचीनं हा रथं स्थापयति अस्तु तृतीयवाक्यः तत्र मधुसूदन महोदय प्रयत्नं करोति वा वयम् इति
वयम् इन्द्रियाणां प्रेरणं कुर्मः प्रेरणं करोमि
कुर्मः तत्र रूपं किं भवति प्रेरणं कुर्मः इति स्थाने प्रेरयामः इति क्रियापदमस्ति अतः वाक्यं किं भवति हा सत्यं सत्यं हा इदानीं वाक्यं किं भवति
वयम् इन्द्रियाणां प्रेरयामः
न इन्द्रियाणाम् अस्ति चेत् तत्र प्रेरणं कुर्मः इति भवति षष्टिविभक्तिरूपम् अस्ति इन्द्रियाणाम् इति मधुसूदन महोदय तत्र कृष्णः अर्जुनम् उपदिशति एकं रूपम् अस्ति कृष्णः अर्जुनस्य उपदेशं करोति इति अन्यत् रूपम् अस्ति खलु मधुसूदन महोदय अतः अर्जुनस्य इति इदानीं मास्तु अर्जुनम् उपदिशति इति अतः प्रेरणं कुर्मः इति स्थाने प्रेरयामः इति भवति अतः प्रथमरूपम् अपेक्षितमस्ति तत्र इन्द्रियाणि एव तत्र किञ्चित् क्लेशः अस्ति मनसि किमर्थमिति वदामि तत्र अभ्यासः किम् आसीत् यत् पदं दत्तमस्ति तस्य षष्टिविभक्तिरूपम् उपयुज्य वाक्यं लिखतु इति अस्ति तद् वयं कृतवन्तः इदानीं तस्मिन् एव अभ्यासे नूतन अभ्यासः कर्तुम् इच्छामः तत्र यत् पदं दत्तमस्ति तदेव तस्य एव उपयोगः भवतु किन्तु यत् क्रियापदद्वयं दत्तमस्ति विभज्य क्रियापदं विभज्य दत्तमस्ति तस्मिन् स्थाने नूतनक्रियापदम् इति विदारणं करोति इति स्थाने विधारयति इति स्थापनं करोति इति स्थाने स्थापयति किन्तु यद् आवरणे दत्तमस्ति पदं तद् तदेव रूपम् अस्ति तस्य परिवर्तनं न भवति केवलं क्रियापदस्य परिवर्तनं भवति अस्तु
रघुपति
शुभभगिनी
कृष्णः रथं भवति
कृष्णः रथं स्थापयति सत्यं
तत्र वयं परिवर्तनं
कृतवन्तः अहं चिन्तितवान् तत्र द्वितीयविभक्ति दत्तमस्ति किन्तु समीचीनं भगिनि प्रथमाविभक्तिरूपं दत्तमस्ति द्वितीयविभक्तिरूपम् आवश्यकमस्ति समीचीनम्
इन्द्रियाणि बहुवचनं
हा किन्तु रथः यत् भवती उक्तवती तत् सत्यं तत्र इन्द्रियाणि इन्द्रियाणि इति तु नपुंसकलिङ्गे अस्ति अतः द्वितीया वा प्रथमा वा नास्ति समानमस्ति किन्तु कोष्टके यद् दत्तमस्ति तत्तु प्रथमविभक्तिरूपमेव अस्ति तत्तु सत्यं द्वितीयविभक्तिरूपम् अपेक्षितम् अस्ति कर्मपदम् इति कृत्वा सत्यं भगिनि अस्तु अग्रे रघुपतिमहोदय वदति वा
आं अर्जुनः गीतामृतस्य पानं करोति अर्जुनः गीतामृतं पिबति
पिबति समीचीनं गीताञ्जलि भगिनि
भीमः दुःशासनस्य मारणं करोति भीमः दुःशासनं मारयति
मारयति तावदेव समीचीनं समीचीनम् अस्तु वंशीसुधा भगिनि
सहदेवः शकुनेः हननं करोति सहदेवः शकुनिं हन्ति
इति प्रायशः अस्ति समीचीनं भगिनि भानुचैतन्य महोदय
एषः इन्द्रियाणि एषः इन्द्रियाणि संयमति
संयमति इति प्रायशः अस्ति तत् किन्तु तत्र पूर्वं किमस्ति एषः तदनन्तरम्
इन्द्रियाणि
एषः इन्द्रियाणि संयमति समीचीनं महोदय अस्तु नरेश महोदय अग्रे
कृष्णः गोपीनां
गोपिकानां
वस्त्राणि अपहरति
वस्त्र किम् अस्ति
वस्त्राणि अपहरति
वस्त्राणि नास्ति नास्ति वस्त्राणि 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 एव द्वितीयविभक्तिरूपम् अस्ति अपहरति समीचीनं महोदय समीचीनं शोभा भगिनी अग्रे
योगी सर्वत्र ईश्वरम् ईक्षते
ईक्षते समीचीनं भगिनी ईक्षते गीताञ्जलि भगिनी रघुपति महोदय
पुण्यकृत् पापस्य तरणं करोति पुण्यकृत् पापं तरति
तरति समीचीनं उषा भगिनी
अहं श्लोकम् अनुवादं करोमि अनुवादामि
न अहं किं प्रथमरूपं किमस्ति
श्लोकः अस्ति महोदय
न अनुवादं करोति अस्ति चेत् किमस्ति तस्य पूर्वं श्लोकस्य अनुवादं करोमि अथवा
अहं श्लोकम्
अनुवादामि
अनुवादयामि
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 अनुवदामि
अनुवदनम् इति अस्ति दट् फोलो
अनुवादयामि अस्तु अनुवादयामि अस्तु समीचीनम् अस्तु तत्र न एतत् सर्वं न दत्तमस्ति किन्तु वयमेव न दृष्ट्वा अत्र सर्वत्र दृष्ट्वा कुर्मः अस्तु समीचीनम् अस्तु अग्रे कुर्मः
पुनः अर्जुनः गीतामृतं धन्यवादः महोदय
अस्तु इदानीम् अग्रिमाभ्यासः तु सरल अभ्यासः अस्ति तत्र केवलं विभजनं करणीयं पूर्वं किम् आसीत् विभजनं कृतं किन्तु किं क्रियापदम् इति तत्र क्लेशः अस्ति किन्तु अग्रे तु बहु सुलभः अस्ति एतत् कृत्वा तृतीय अभ्यासः अस्तु तत्र गीताञ्जलि भगिनी आरम्भं करोति वा तृतीय अभ्यासः?
आं महोदय. क्रियापदानि विभज्य लिखत. क्रियापदानि क्रियापदानां विभजनम्. अलङ्करोति अलङ्कारं करोति. परिचिन्तयति परिचिन्तनं करोति.
हा समीचीनं. हा उषा भगिनी अग्रे.
बोधयामि बोधनं करोति.
बोधयामि हा बोधनं करोमि. समीचीनं. शोभा भगिनी.
पिबति पानं करोमि.
हा पानं करोति. हा पानं करोति.
पिबति करोति.
समीचीनं भगिनी. हा नरेश महोदय.
प्रक्षालयसि प्रक्षालयं करोषि.
हा प्रक्षालयं प्रक्षालनं प्रक्षालनं
प्रक्षालनं करोषि.
हा प्रक्षालनं करोषि. समीचीनं. हा भानुचेतनी महोदय.
प्रक्षालनं महोदय. निर्गच्छति.
निर्गमनम्
इति भवति. गच्छति इति गमनं.
निर्गमनं निर्गमनं करोति
करोति. हा निर्गमनं करोति. वंशीषद भगिनी अग्रिमं.
प्रविशथ प्रवेशं करोति.
तत्र वचनं किम् अस्ति?
ओ कुरुत. प्रवेशं कुरुत.
प्रवेशं कुरुत. वचनं किं?
प्रवेशनं अथवा
मध्यमपुरुषे महोदय.
मध्यमपुरुष सत्यं. वचनं वचनं
बहुवचनं.
हा अस्तु. नरेश महोदय किं प्रश्नः कः?
प्रवेशम् अथवा प्रवेशनं
इति मन्ये महोदय. अस्तु अग्रे मधुसूदन महोदय. परिभ्रमणं करोति. समीचीनं. रघुपति महोदय.
अनुसरति अनुसरणं करोति.
अनुसरणं करोति. समीचीनम्. उषा भगिनी.
स्मरति स्मरणं करोति.
हा समीचीनं. चिनत्ति दत्तमस्ति. अस्तु गीताञ्जलि भगिनी अग्रे.
अभिनन्दनं करोति.
अभिनन्दनं करोति. समीचीनं. शोभा भगिनी.
आवृणोति आवरणं करोति.
हा आवरणं करोति. समीचीनं. हा वंशीसुध भगिनी अग्रे.
स्तुवन्ति स्तवनं करोति.
स्तवनं
कुर्वन्ति.
समीचीनम् इति मन्ये.
शोषणं.
नरेश महोदय किम् उक्तवान्? वंशीसुध भगिनी पुनरेकवारं वदतु.
स्तवनम् इति अहं चिन्तयामि महोदय.
स्तवनं स्तव इति अस्ति. स्तवनं
स्तवनं
किं महोदय?
अहं न जानामि. स्तवनं
इति उक्तवती वंशीसुध भगिनी उक्तवती. स्तवनम् इति स्तुति स्तुति इति. अस्तु अग्रे मधुसूदन महोदय.
शोषयति
शोषणं करोति. समीचीनं. किं महोदय? शोषणम्
एक्स्प्लाइट् महोदय शोषणम्
ड्रै अप् पोषणं
पोषणम्
क्षम्यतां क्षम्यतां हा अहं पोषणम् इति चिन्तय चिन्तय शोषणम् इति
न न शुष् नास्ति शुष्कं नास्ति शुष्कीकरणं नास्ति शोषणम् इत्युक्ते एक्स्प्लाय्टेशन् एक्स्प्लाय्ट् नेगेटिव् कन्नोटेशन्
अस्तु अस्तु अग्रे रघुपति महोदय अग्रे
सङ्ग्रहति सङ्ग्रहणाति सङ्गृह्णाति सङ्गृह्णाति सङ्ग्रह सङ्ग्रह्यति
सङ्ग्रहणं करोति
सारी सङ्ग्रहणं करोति
सङ्ग्रहणं करोति सङ्ग्रहणं करोति गीतञ्जलि भगिनी अग्रिमं
गास्यति गानं करोति
गायसि
ओ गायसि गानं करोषि
गानं करोषि इति अस्ति अस्तु अतः तत्र एकम् एव वाक्यं तस्य रूपद्वयम् अस्ति यत्र क्रियापदं यत् अस्ति तस्मिन् स्थाने करोति इति उपयुज्य तत्र क्रियापदस्य विभजनं भवति इति अस्तु इदानीं तत्र
महोदय अत्र स्पोकन् संस्कृत मध्ये तु शोषणम् इति ड्रै एव अस्ति
तत्र शब्दकोशः शब्दकोशं दृष्ट्वा यत् समीचीनम् इति प्रायशः तदपि भवति
इति
मीनिङ्ग्
अर्थं मध्ये तदेव तदेव अस्ति
आम् महोदय विषयान्तरं महोदय पूर्वभागे प्रबन्धतज्ञाः इत्युक्ते तज्ञाः एक्स्पर्ट् प्रबन्ध लेखनमपि अस्ति लेखनतज्ञाः इति अस्ति वा लैक् लेखनतज्ञाः गीताव्याख्यानं शृण्वन्ति तत्र तत्र प्रायशः
मेनेजर्
इति अहं
तदपि भवितुम् अर्हति भगिनि तत्र कीदृशपदं तत् प्रबन्धतज्ञाः इति केवलं नूतनपदं वा अथवा समस्तपदं वा इति तद् तत्र अर्थद्वयं भवितुम् अर्हति अर्थद्वयं भवितुम् अर्हति भगिनि
प्रबन्धस्य लेखनं
तदपि तदपि समीचीनमेव अस्ति भगिनि तत्र वयं
तत्र किं सन्धिः अस्ति महोदय प्रबन्धतज्ञाः सन्धिः
षष्ठी प्रबन्धस्य
प्रबन्धस्य
प्रबन्धतज्ञः
किन्तु किन्तु शोभा भगिनी तत्र अर्थद्वयं भवितुम् अर्हति तत्र वयं न जानीमः सन्दर्भः न जानीमः खलु तत्र
अहं किमर्थं
पृष्टवती
चेत् प्रबन्धतज्ञाः गीताव्याख्यानं शृण्वन्ति इति अस्ति आसीत्
सत्यं भगिनि सत्यं सत्यं
किन्तु
समीचीनं भगिनि तदपि समीचीनमेव अस्ति किन्तु एतत् केवलं गीतायाः किमपि व्याख्यानं कोऽपि करोति तद् ते सर्वे ते शृण्वन्ति तदपि तदपि
अस्ति आङ्ग्लभाषायां प्रबन्धज्ञाः प्रबन्धज्ञाः
किमस्ति प्रबन्धज्ञः अस्तु 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 अस्तु
प्रबन्धकः व्यवस्थापकः प्रबन्धतज्ञ
अस्तु 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 धन्यवादः अस्तु अन्य प्रश्नः अस्ति वा अस्मिन् विषये तत्र केवलं क्रियापदस्य विभजनं कथं करणीयं तस्य प्रयोगः कः इति तावदेव
महोदय आवृणोति पुनरेकवारं कृपया वदतु महोदय
कुत्र महोदय
आवृणोति
आवरणं करोति
आवरणं करोति
महोदय आवरणं करोति तदेव उत्तरम् आसीत् खलु आवरणं करोति इति का शोभा भगिनी उक्तवती वा एतद्
आं महोदय यथा विवृणोति विवरणं करोति चिन्तयामि
आवरणं करोति समीचीनं भगिनी सत्यं सत्यमेव हा सत्यम् आवरणं करोति
तत्र अर्थं किं महोदय
आवरणम् आवरणम् इत्युक्ते टु पुट् a fence or to fence. Something
envelope
fence closures fencing. boundary tatra
avarna avarna doshaha bhavitum arhati
astu tatra avarna tatra
closing
tatra kim bhavati tatra mandire prakaranam iti prakara iti yat vadamaha tadrusha one inside enclosure ha enclosure iti angla bhashayam bhavati enclosure
atra pustake api parenthesis avarane
datam ha tadapi asti tad satyam satyam avarane dattanam shabdanam iti satyam bhagini ha
vivaranam karoti iti vivaranam tu artham anyaha eva
satyam satyam vivaranam asti kintu tadrusha rupam asti iti ha तादृशरूपम् इति चिन्तयित्वा शोभभगिनी उक्तवती आवृणोति इति विवृणोति विवरणं करोति आवृणोति आवरणं करोति इति अस्तु
सम्यक्
अस्तु 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 समयः जातः अग्रिमवर्गे मिलामः अत्र किञ्चित् अग्रे अपि सरामः अग्रिमवर्गे अस्तु सर्वेभ्यो नमः अग्रिमवर्गे मिलामः
धन्यवादः
भवतः